अथ गीता माहात्म्यम् धरोवाच भगवन् परमेशानः भक्तिरव्यभिचारिणी प्रारब्धम् भुज्यमानस्य कथम् भवति हे प्रभो श्रीविष्णुरुवाच प्रारब्धम् भुज्यमानो हि गीताभ्यासरतस्तदा समुक्तः सुखी लोके कर्मणा नोपलिप्यते महापापादिपापानि गीताध्यानम् करोति चेत् क्वचित् स्पर्शम् न कुर्वन्ति नलिनीदलमम्बुवत् गीतायाः पुस्तकम् यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च ये गोपाला गोपिका वापि नारदोद्भव पार्षदैः सहायो जायते शीघ्रम् यत्र गीता प्रवर्तते यत्र गीता विचारश्च पठनम् पाठनम् श्रुतम् तत्राहम् निश्चितम् पृथ्वी निवसामि सदैव हि गीताश्रयेऽहम् तिष्ठामि गीतामेतोत्तमम् गृहम् गीताज्ञानमुपाश्रित्य त्रिलोकान् पालयाम्यहम् गीता मे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्राक्षरा नित्या स्वानिर्वाच्य पदात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् वेदत्रयी परानन्द तत्त्वार्थज्ञानसंयुत योष्टादश जपो नित्यम् नरो निश्चलमानसः ज्ञानसिद्धिम् स लभते ततो याति परम् पदम् पाठे समर्थः सम्पूर्णे ततोऽर्धम् पाठमाचरे तदा गोदानजम् पुण्यम् लभते नात्र संशयः त्रिभागम् पठमानस्तु गङ्गास्नानफलम् लभे षडंशम् जपमानस्तु सोमयागफलम् लभे एकाध्यायम् तु यो नित्यम् पठते भक्तिसंयुतः रुद्रलोकमवाप्नोति गणो भूत्वा वसिष्ठिरम् अध्यायश्लोकपादम् वा नित्यम् यः पठते नरः स याति नरताम् यावत् मन्वन्तरम् वसुन्धरे गीतायाः श्लोकदशकम् सप्त पञ्चचतुष्टयम् द्वौ त्रिनेकम् तदर्धम् वा श्लोकानाम् यः पठेन्नरः चन्द्रलोकमवाप्नोति वर्षाणामयुतम् ध्रुवम् गीतापाठसमायुक्तः मृतो मानुषतान्द्रजे गीताभ्यासम् पुनः कृत्वा लभते मुक्तिमुत्तमा। ज्येतेत्युच्चार संयुक्तः म्रियमाणो गतिम् लभे गीतार्थश्रवणासक्तः महापापयुतोऽपि वा वैकुण्ठम् समवाप्नोति विष्णुनादा मोदते गीतार्थम् ज्ञायते नित्यम् कृत्वा कर्माणि भूरिशः जीवन्मुक्तः स विज्ञेयः देहान्ते परमम् पदम् गीताम् आशिष्य बहवः भूभुजो जनकादयः निर्धूतकल्मषालोके गीतायाः परम् पदम् गीतायाः पठनम् कृत्वा माहात्म्यम् नैव यः पठेत् वृथा पाठो भवेत् तस्य श्रम एव स्युदाहृतः एतन्माहात्म्यसंयुक्तम् गीताभ्यासम् करोति यः ततत्फलमवाप्नोति दुर्लभाम् गतिमाप्नुयात् सूत उवाच माहात्म्यम् एतद्गीतायाः मया प्रोक्तम् सनातनम् गीतान्ते च पठेद्यस्तु यदुक्तम् तत्फलम् लभेत् इति श्रीवराहपुराणे गीतामाहात्म्यम् सम्पूर्णम् हरि ओम् तत्सत्।